एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। आगामिनि बृहस्पतिवासरे अर्थात् अस्यैव फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य प्रतिनिधिसभा सदस्यानाम् निर्वाचनस्य प्रचार प्रसारयोः निषेधावधिः गतरात्रौ द्वादशवादनात् प्रारब्धो वर्तते। प्रतिनिधिसभायाः निर्वाचनस्य कृते केवलं दिनद्वयम् अवशिष्टमस्ति। परश्वः बृहस्पतिवासरे सम्पत्स्यमानस्य प्रतिनिधिसभायाः निर्वाचनस्य कृते सम्पूर्णं पूर्वकार्यं प्रपूरितम् अस्तीति निर्वाचनायोगेन ज्ञापितं वर्तते। निर्वाचनविधेः अनुसारेण निर्वाचन प्रारभणस्य दिनस्य अष्टाचत्वारिंशतो घण्टाभ्यः पूर्वतः मौनावधेः प्रारभणस्य व्यवस्थायाः अनुसारेण गतरात्रौ द्वादशवादनाद् मौनावधिः प्रारब्धोऽस्ति। निर्वाचने मतदातारः शान्तेन मनसा शान्तवातावरणे स्वविवेकेन मतदानं कुर्यु इति धिया अस्मिन् अवधौ राजनीतिकदलैः प्रत्याशिभिश्च केनापि माध्यमेन प्रचार प्रसारौ कर्तुं न शक्येते। निर्वाचनस्य कृते भारतदेशस्य चीनदेशस्य च सीमावर्ति जनपदेषु सुरक्षा व्यवस्था सुदृढा विहिता वर्तते। निर्वाचनस्य सुरक्षायै सीमावर्ति क्षेत्रेषु मतदानस्य द्वासप्ततेः घण्टाभ्यः पूर्वतः गतरात्रौ द्वादशवादनतः सीमप्रवेशद्वाराणि पिहितानि वर्तन्ते। मतदानस्य दिनस्य अष्टाचत्वारिंशतो घण्टाभ्यः पूर्वं मतदानस्थलस्य शतत्रय मीटरमितेषु निकटस्थेषु स्थानेषु परितो वा स्थापिताः राजनीतिकदलानां प्रत्याशिनां वा प्रचार प्रसारयोः सामग्र्यः अपसारिताः वर्तन्ते। एवमेव समयस्मिन् सामाजिक सञ्जालेषु अनलाइन माध्यमेषु प्रकाशनेषु अन्येषु सर्वविधेषु माध्यमेषु वा कस्यापि दलस्य प्रत्याशिनः पक्षे विपक्षे वा कथंविधस्यापि सन्देशस्य सूचनायाः प्रचार प्रसारयोश्च सामग्रीणां सार्वजनिकरणं प्रचार प्रसारौ च मतदानस्य असमाप्तिं यावत् कर्तुं कारयितुं च निषिद्धं वर्तते। राष्ट्रपति रामचन्द्र पौडेलः आगामिनि बृहस्पतिवासरे आयोक्ष्यमाणेन प्रतिनिधिसभा सदस्यानां निर्वाचनेन विकासस्य समृद्धेः उन्नतेश्च यात्रा नवीनरीत्या परिभाष्य नवीनत्वोच्चतायां प्राप्स्यते इति विश्वासं व्यनक्ति। यः राष्ट्रं सम्बोधयन् राष्ट्रपति पौडेलः निर्वाचनं पश्चात्तन्याः उपलब्धेः संरक्षण पुरस्सरं नवीन सम्भावनया अग्रेगमनस्य युगापेक्षा वर्तते इति प्रावोचत्। राष्ट्रपतिः पौडेलः निर्वाचनमिदं न केवलं प्रतिनिधीनां चयनस्य सांविधानिक प्रक्रियास्ति अपितु संघीय लोकतान्त्रिक गणतन्त्रस्य यात्राम् इतोऽपि व्यापिनीं विश्वसनीयां सुदृढां च विधातुम् ऐतिहासिक अवसरोऽस्तीत्यतः निर्वाचनस्य सफलीकरणम् दायित्वं वर्तते इति प्रावोचत्। उपराष्ट्रपति रामसाय प्रसाद यादवः आसन्नेन निर्वाचनेन संघीय लोकतान्त्रिक गणतन्त्र नेपालः इतोऽपि सबलः सुदृढश्च भविष्यतीति विश्वासं व्यनक्ति। निर्वाचनस्य अवसरे ह्य सन्देशं ददता उपराष्ट्रपतिना पौडेलेन निर्वाचनेन राष्ट्रियैकता सहकार्यं च सुदृढं विधास्यते इति विश्वासम् अभिव्यनक। उपराष्ट्रपतिः यादवः मतदान प्रक्रियायां सहभागिताया क्रमे निर्वाचन आचार संहितायाः पालनां विधाय सुसंस्कृतानां नागरिकाणां परिचयं प्रदातुम् अन्वरुणात्। प्रधानमन्त्री सुशीला कार्की देशं राजनीतिक स्थायित्वस्य समृद्धश्च मार्गे नेतुं निर्वाचने सहभागितायै सर्वान् मतदातृन् अनुरोधादि। ह्य राष्ट्रं सम्बोधयन्ती प्रधानमन्त्री कार्की आगामिनि बृहस्पतिवासरे कार्यान्तराणि विहाय स्वकीयं निर्धारितं मतदानकेन्द्रं सम्प्राप्य मतं दातुम् अनुरोधात्। मतदानं न केवलं चयनचिह्नं प्रयुज्य एकस्य प्रतिनिधेः चयनमात्रं नास्ति अपितु स्वस्य सन्ततेः भविष्यस्य निर्धारणं च वर्तते इति प्रावोचत। मध्यपूर्वक्षेत्रे घटिताः घटनाः सर्वकारेण सूक्ष्मतया निरीक्ष्यमाणाः सन्तीति चर्चयन्ती प्रधानमन्त्री कार्की तत्रत्यानां नेपाली नागरिकाणां सुरक्षा सर्वकारस्य चिन्तायाः विषयोऽस्तीति उदैरयत्। नेपालस्य तराई क्षेत्रे अद्य होलिका पर्वोत्सव समायोज्यमानो वर्तते। पर्वेदम आबाल वृद्धजना सहर्षम आयोजयन्ति यत्र अविरादि चूर्णानाम निक्षेप पुरस्सरम विविध रंग मिश्रित जलानि च विक्रियन्ते। भक्त शिरोमणिम प्रह्लादम विष्णोः भक्तेर विमुखम कारयितुम विविधोपायान विदधत हिरण्यकश्यपोः आज्ञया प्रह्लादम भस्मसात कर्तुम यतमानायाः अग्निसिद्धेः कारणेन दर्पिताया होलिकायाः न केवलम् प्रह्लादस्य दाहकर्म असफलम् जातम् प्रत्युतः सैव दग्धेति घटनायाः स्मृतौ हर्षम् प्रकटयितुम् अविरादि रंगमिश्रित जलक्षेपणम् प्रचलितमिति पौराणिकवृत्तम् वर्तते। इदं पर्व नारीणां सौभाग्यवृद्धये बालानां प्रसन्नताये लोककल्याणाय अहंकारस्य शमनाय च प्रसिद्धमस्ति। देशस्य पर्वतीय भूभागेषु काष्ठमण्डपोपत्यकायां पूर्वेद्युः होलिकोत्सवः समायोजितः आसीत्। सर्वकारेण होलिका पर्वोत्सवस्य अवसरे ह्य पर्वतीय भूभागेषु अद्य तराई मधेश भूभागेषु च सार्वजनिकावकाशः प्रदत्तः वर्तते इति समाचाराः।